एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः प्रतिपक्षी राजनीतिक दलानाम् नेतृणाम् ह्यः उपविष्टेन उपवेशेन संसदः शीतकालिकम् अधिवेशनम् तत्कालम् आह्वातुम् सर्वकारः अभियाचितो वर्तते। संघीय संसदः नयाँ वानेश्वरवर्तिनी भवने ह्यः उपविष्टेन प्रतिपक्षी दलानाम् उपवेशेन अध्यादेशस्य माध्यमेन दूरगामि प्रभावस्य सजगाः विधयः अपि क्रियान्विताः सन्तीत्यत्र गभीरम् ध्यानाकर्षणम् कुर्वता तत्कालम् शीतकालिकम् अधिवेशनम् आह्वाय संसदः गरिमणम् मर्यादाम् च सम्मानयितुम् सर्वकारः अभियाचितो वर्तते। उपवेशस्य पश्चात् आयोजिते पत्रकार सम्मेलने नेकपा माओवादी केन्द्रस्य अध्यक्षश्च पुष्पकमल दाहाल प्रचण्डः संसदः अधिवेशनम् आह्वातुम् सर्वकारेण तत्कालम् प्रक्रिया अग्रे अवर्धापिता सति आत्मभिः संसदः विशेषाधिवेशनस्य याचनम् करिष्यते इति अवोचत। उपवेशे प्रमुख प्रतिपक्षिणा दलेन नेकपा माओवादी केन्द्रेण सह राष्ट्रिय स्वतन्त्र दलस्य राष्ट्रिय प्रजातन्त्र दलस्य नेकपा एकीकृत समाजवादी दलस्य राष्ट्रिय जनमोर्चा दलस्य आम जनता दलस्य नेकपा समाजवादी दलस्य च शीर्ष नेतृणाम् सहभागिता आसीत्। प्रधानमन्त्री केपी शर्मा ओली निगदति जनतायै सेवाम् विकासाय गतिम् च प्रदातुम् आनीताः अध्यादेशाः पञ्चदश दिनानाम् पश्चात् उपवेक्ष्यमाणे संसद अधिवेशने प्रस्तुत्य मासद्वयस्य अभ्यन्तरे पारितीकरिष्यन्ते। इपान नाम्नः स्वतन्त्रोर्ज उत्पादक संघस्य रजत जयन्त्याः अवसरे ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे प्रधानमन्त्री ओली स्वदेशे एव लौहखनेः मलखनेश्च विपुलोद्योगाः स्थापनायाः क्रमे सन्ति पिधापितान् उद्योगान् नूतन संरचनायाम् सञ्चालयितुम् पूर्वकार्यम् विधीयमानम् च वर्तते इत्यतः उत्पादितस्य ऊर्जसः व्ययस्य चिन्तायाः अवस्था नास्तीति स्पष्टीकृतवान्। प्रधानमन्त्री ओली ऊर्जाक्षेत्रे सर्वकारस्य निवेशनेन सह नैजक्षेत्रस्य वैदेशिकक्षेत्रस्य च निवेशनाय अपि तथैव महत्वम् प्रदत्तमस्तीति समस्पष्टयत्। कार्यक्रमे ऊर्जोजलस्रोत सेचन मन्त्री दीपक खड्का विपन्नवर्गाणाम् ऊर्जसह विकासस्य माध्यमेन समृद्धियात्रायाम् योजनात्वेन सर्वकारेण कार्यम् विधीयमानमस्तीति अकथयत्। राष्ट्रपतिना रामचन्द्र पौडेलेन काष्ठमण्डप तराई मधेस द्रुत मार्गस्य आयोजनाम् निर्धारित समय पूरयितुम् नेपाली सेना निर्दिष्टा वर्तते। राष्ट्रपति पौडेलः द्रुत मार्गस्य निर्माणाधीनानाम् भूमिगत मार्गस्य सेतूनाम् मार्गस्य च इहो निरीक्षणम् विधाय आयोजनायाः सम्पादनाय जायमानस्य प्रयासस्य प्रयत्नस्य च विषये ज्ञातवान् अस्ति। राष्ट्रिय गौरवस्य आयोजनासु सर्वाधिक प्राथमिकतायाम् स्थिता आयोजनेयम् नेपाली सेनायाः व्यवस्थापने निर्मीयमाणा वर्तते। काष्ठमण्डप ललितपुर मकवानपुर मार्गेण बारा जनपदस्य निजगढ स्थाने पूर्व पश्चिम राजमार्गेण सह संयोक्ष्यमाणस्य द्रुतमार्गस्यास्य निर्माणस्य पश्चात् देशस्य विकासे समृद्धौ च महदय योगदानम् प्राप्स्यतीति अपेक्षा विहिता वर्तते। काष्ठमण्डप विश्वविद्यालयस्य धुलीखेल चिकित्सालयस्य च वर्षचतुष्टयात् स्थितस्य विवादस्य समाधानम् सम्भूतमस्ति। विवादस्य समाधानाय संघटितायाः सहजीकरण समितेः प्रतिवेदनस्य ह्य विश्वविद्यालय सभायाः अष्टानवतितम सभायाः उपवेशेन स्वीकृतेः पश्चात् संस्थाद्वयस्य सम्बन्धः पूर्ववदवस्थायाम् प्राप्तोऽस्ति। प्रधानमन्त्रिणः कुलपतेश्च केपी शर्मा ओलिनः अध्यक्षतायाम् ह्यः उपविष्टेन सभायाः उपवेशेन विवादम् समाधातुम् राष्ट्रिय योजनायोगस्य सदस्यस्य गीता कुमारी पौड्याल अधिकारिणः संयोजकत्वे संघटितायाः सप्त सदस्यीय सहजीकरण समितेः प्रतिवेदनम् पारितीकृतम् अस्ति। काष्ठमण्डप जनस्वास्थ्य कार्यालयेन मातुः दुग्धस्य विस्थापकस्य वस्तुनः विक्रय वितरणे न विधातुं निर्दिष्टमस्ति। कार्यालयेन आपणे मातुः दुग्धस्य विस्थापकस्य वस्तुनः विक्रय वितरणयोः प्राप्तत्वात् कार्यमेतदरोद्धुम् अनुरुद्धं वर्तते। कार्यालयस्य जनस्वास्थ्याधिकृतः अनिता खनालः आपणे मातुः दुग्धस्य विस्थापकानां विभिन्नानाम् आहार खाद्य पदार्थानां विक्रय वितरणस्य जायमानस्य प्राप्तत्वाद् कार्यमेतद् अवरोद्धुं निर्दिष्टमस्तीति असूचयत्। मातुः दुग्धमिव कस्यापि खाद्य पदार्थस्य असत्वाद् एवं निर्दिष्टमस्तीति अधिकृतः खनालः समस्पष्टयत्। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ निगदति सार्वजनिक सेवा प्रसारणस्य स्वायत्त संस्थायाः रूपेण स्थापनं करिष्यते। मन्त्री गुरूङ संस्थामिमां जनसम्बद्ध विषयाणां राज्याय संसूचक निकायस्य रूपेण विकसयितुम् ईप्सितमस्तीति अवोचत। त्रिभुवन विश्वविद्यालयस्य पत्रकारिता जनसञ्चार केन्द्रीय विभागेन ह्य आयोजितं नेपाले सार्वजनिक सेवा प्रसारण नीति विषयकं संवाद कार्यक्रमं सम्बोधयन् मन्त्री गुरूङ सार्वजनिक सेवा प्रसारणे सत्ताशक्तेः प्रभावः न स्रष्टव्यः इत्यत्र सर्वकारः सहमतोऽस्तीति अवोचत। विधेः निर्माणस्य संसदीय कार्याणां प्रभावकारी सम्पादनस्य च विषयेषु प्रमुख राजनीतिक दल चतुष्टयस्य नेतृषु विमर्शनं सम्भूतं वर्तते। नेकपा एमाले संसदीय दलस्य सिंहप्रसाद वर्तिनी कार्यालये ह्य नेपाली कांग्रेस नेकपा एमाले नेकपा माओवादी केन्द्र रासोपा दलानां नेतृषु विमर्शनं सम्भूतमस्ति। नेकपा एमाले दलस्य मुख्य सचेतक पदीयः महेश कुमार वर्तौला संसदीय समितौ विमृश्यमानेषु विधेयकेषु संयुक्त धारणायाः निर्माणस्य विषये विमर्शनं सञ्चलदस्तीति असूचयत। मुख्य सचेतकः वर्तौला संसदीय कार्याणां प्रभावकारी सम्पादनस्य विषये एकत्र स्थित्वा अग्रे वर्धितुं विमर्शनात् निष्कर्षः प्रकाशितोऽस्तीति असूचयत। गृहमन्त्री रमेश लेखकः गदति सुशासनाय सहजरूपेण सेवायाः प्रवाहाय अपराधस्य नियन्त्रणाय च राष्ट्रिय परिचय पत्रस्य अपरिहार्यता सम्भूतास्ति। प्रतिनिधिसभायाः राज्य व्यवस्था सुशासन समिते ह्यस्तनोपवेशे राष्ट्रिय परिचय पत्रस्य सम्बन्धे सांसदैः उत्थापितानां प्रश्नानाम् उत्तरं प्रयच्छत् प्रयच्छन् गृहमन्त्री लेखकः सम्पद शुद्धिकरण सम्बद्ध राष्ट्रियान्तर्राष्ट्रिय प्रतिबद्धतायाः प्रभावकारिणे क्रियान्वयनाय अपि राष्ट्रिय परिचय पत्रस्य अनिवार्यता सम्भूतास्तीति अवोचत। राष्ट्रिय परिचय पत्रे समाविष्टानां नागरिकाणां जैविक व्यक्तिगत विवरणानां सुरक्षां प्रति सर्वकारः संवेदनशीलोऽस्तीति विषयं द्विरावर्तयन् गृहमन्त्री लेखकः तेषां विवरणानां सुरक्षायै प्रतिबद्धतां व्यक्तवान्। पेयजलमन्त्री प्रदीप यादवः भासते वर्षाभ्यन्तरे 100% जनतायाम् आधारभूत पेयजलस्य प्रापणस्य लक्ष्यं सर्वकारस्य वर्तते। ह्य मन्त्रालये पेयजल संस्थानस्य निमित्त महाप्रबन्धकेन त्रिदीप श्रेष्ठेन सहितेन समूहेन सह विहिते विमर्शने मन्त्री यादवः सम्प्रति देशे 98% नागरिकेषु पेयजलसेवा प्रापितास्तीत्यतः आगामिनः एकवर्षस्य अभ्यन्तरे 100% जनतायाम् आधारभूत पेयजलस्य प्रापणस्य लक्ष्येण कार्यं सर्वकारेण विधीयमानमस्तीति असूचयत्। प्रतिनिधिसभाया शिक्षा स्वास्थ्य सूचना प्रविधि समितौ सैद दशरथ चन्द स्वास्थ्य विज्ञान विश्वविद्यालय विधेयकमाधृत्य संशोधनकर्तृभिः जनैः सह विमृष्टं वर्तते। समिते ह्यस्तनोपवेशे संशोधनकर्तृ सांसदैः चिकित्सा शिक्षायाः प्रथम विश्वविद्यालयः अन्तर्राष्ट्रिय स्तरस्य सम्पादनीयः इत्यत्र बलं दत्तमस्ति। भूकम्पात् क्षतिग्रस्तानां संरचनानां पुनर्निर्माण कार्यम् अछाम जनपदात् प्रारब्धं वर्तते। वर्षद्वयात् पूर्वं डोटी जनपदं केन्द्रबिन्दुं निर्माय द्रापन्नस्य भूकम्पस्य पश्चात् क्षतेः विस्तृत विवरणस्य प्रतिवेदनस्य आधारेण लाभग्राहिणः प्रचित्य पुनर्निर्माणस्य सबलीकरणस्य च कार्यं प्रारब्धमस्तीति प्रमुख जनपदाधिकारी शिवप्रसाद लम्सालः अज्ञापयत्। इति समाचाराः।